सौन्दर्यलहरी श्लोका 76 हर क्रोधज्वालावलिभिहीम् अवलीढेन वपुषः गभीरे तेनाभिसरसि कृतसङ्गो मनसि जहाम् समुत्थस्थौ तस्मात् अचलतनये धूमलतिकः जनस्तां जानीते तव जननि रोमावलिरिति श्लोका 77 यदेतत्कालिन्दी तनुतरतरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियां विमर्धादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योमं प्रविशदिवनाभिं कुहरिणीं श्लोका 78 स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलतः कलावालं कुण्डं कुसुमशरतेजोहुतभुजः रतेर्लीलागारं किमपि तव नाभिर्गिरिसुतेः बिलद्वारं सिद्धेः गिरिशनयनानां विजयते श्लोका 79 निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषोः नमन्मूर्तेर्नारीतिलकशनकैः तुट्यत इव चिरं ते मध्यस्य त्रुटिततटिनीतीरकतरुणः समावस्थास्तेम्नः भवतु कुशलं शैलतनये कुचौ सद्यस्विद्यत्थटघटिता कूर्पासविदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयतां तवत्रातुं भङ्गाधलमिति वलग्नं तनुभुवः त्रिधानद्धं देवी त्रिवलि लवलि वल्लिभिरिव श्लोका 81 गुरुत्वं विस्तारं क्षितिधरपतिः पार्वती निजात् निदम्भाधाच्छिद्यं त्वयि हरणरूपेण निदधे अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं निदम्बप्राग्भारः सघयति लघुत्वं नयति च श्लोक 82 करीन्द्राणां शुण्डान् कनककदली काण्टपडलीम् उभाभ्यामूरुभ्याम् उभयमपि निर्जित्य भवति सुवृत्ताभ्यां पत्युः प्रणति कठिनाभ्यां गिरिसुतेः विधिज्ञे जानुभ्यां विभुदकरिकुम्भद्वयमसि श्लोक 83 पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुतेः निषङ्गौ जङ्गेते विषमविशिखो बाडमकृत यदग्रे दृश्यन्ते दशशरफला पादयुगलीं नकाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः श्लोक 84 श्रुतीनां मूर्धानो ददति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया देहि चरणौ ययोपाद्यं पातः पशुपतिजटाचूटकटिनी ययोर्लाक्षालक्ष्मीररुणहरि चूडामणिरुचिः श्लोक 85 नमो वाकं भ्रूमो नयन रमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवदन कङ्गेळितरवे श्लोक 86 मृषा कृत्वा गोत्रस्थलनमतवैलक्षणमितं